इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। रेलमन्त्री अश्विनी वैष्णवः ह्यः गुजरातस्य भावनगर रेलस्थानकात् भावनगर अयोध्या छावनी इत्यस्य साप्ताहिक रेलयानस्य उद्घाटनं विहितवान्। मन्त्री रेवा पुणे नगरयोः जबलपुर रायपुर नगरयोः मध्ये च अन्यद्वयं रेलयानम् अपि समुद्घाटितवान्। मन्त्री अवोचत् यत् गत एकादशवर्षेषु चतुस्त्रिंशत्सहस्र किलोमीटर यावत् नूतनाः रेलमार्गाः स्थापिताः। भारतीयरेलयाने अविरतं परिवर्तनं विधीयते। भावनगर रेलस्थानके जनसमूहं सम्बोधयन् सः रेल नेटवर्क इत्यस्य विकासाय, आधुनिकीकरणाय, विस्ताराय च रेलयाने सुरक्षां स्वच्छतां च सुनिश्चेतुं सर्वकारस्य प्रतिबद्धतां पुनः दृढीकृतवान्। मन्त्री प्रत्यपादयत् यत् देशे त्रयोदशशतस्थानकानां पुनर्विकासः विश्वस्य बृहत्तमा स्थानकपुनर्विकासपरियोजना अस्ति इति। उत्तरप्रदेशे ह्यः प्रातः गोण्डानगरे मार्गदुर्घटनायां न्यूनातिन्यूनम् 11 जनाः मृताः, अन्ये 4 जनाः व्रणिताः। आरक्ष्यानुसारं पृथ्वीनाथमन्दिरं प्रति गच्छत् 15 भक्तान् वहत् एकं बोलेरो यानम् अनियन्त्रितं भूत्वा रेहराग्रामे सरयूनहरसेतोः समीपे परसराय अलावल देवरिया मार्गात् जलकुल्यायां पतितम्। गोण्डा आरक्षि अधीक्षकः विनीत जयसवालः वार्ताहरान् उक्तवान् यत् जलकुल्यातः 11 शवाः प्राप्ताः इति। प्रधानमन्त्री नरेन्द्र मोदी हृदयविदारिकायां दुर्घटनायां प्राणहानि विषये दुःखं प्रकटितवान् च। दीनदयाल नौकाश्रय प्राधिकरणेन कन्दलानगरस्य नौकाश्रय क्षेत्रे भारतस्य प्रथमं मेक इन इण्डिया हरित हाइड्रोजन संयन्त्रं प्रारब्धम्। प्रधानमन्त्री नरेन्द्र मोदी वर्षस्य नेट जीरो विजन प्रति इयं प्रबल पदयात्रा वर्तते। नौकाश्रय प्राधिकरणं स्पष्टयति। एकस्मिन् जनसञ्चारपटले श्रीमोदी प्रत्यपादयत् यत् एषः प्रशंसनीयः प्रयासः सुस्थिरतां च समर्थयति, नेट जीरो विजन इत्यस्मै शक्तिं च यच्छति इति। जापानदेशे ओसाकानगरे आयोजितायां 25-उत्तर-2000तमवर्षस्य विश्वप्रदर्शन्यां भारतमण्डपम् इति शीर्षकः ह्यः 20,000तः अधिकान् अभ्यागतान् आकर्षयत्, यतः जनाः भारतस्य सांस्कृतिकपरम्परायाः हस्तशिल्पस्य च समृद्धिं द्रष्टुम् आगच्छन्। प्रदर्शन्याम् अन्येषु आकर्षणेषु चन्द्रयानक्षेत्रम् अन्तर्भवति, यत् अन्तरिक्ष अन्वेषणे भारतस्य प्रवर्तक उपलब्धिः तस्य अभियानानि च प्रदर्शयति। एषा अन्यतमा प्रदर्शनी भारतस्य मृदुशक्तिं प्रदर्शयति। बहुध्रुवीयविश्वे तस्य पदचिह्नानि स्थापयति। अस्मिन् प्रदर्शने 60%तः अधिकाः देशाः, 9 अन्ताराष्ट्रियसंस्थाः च भागम् अगृह्णन्। केन्द्रीयपरिवहनराजमार्गमन्त्रिणा नितिनगडकरिणा घोषितं यत् आगामिवर्षद्वये आन्ध्रप्रदेशस्य मार्गाः अमेरिकीयमार्गसदृशाः भविष्यन्ति। ह्यः आन्ध्रप्रदेशस्य मङ्गलागिरिनगरे 27 मार्गविकासपरियोजनानां आधारशिलास्थापनं कृत्वा 33.5 लाख करोड़ रुपयेकाणां सम्पन्नद्वयोः परियोजनयोः राष्ट्राय समर्पणानन्तरं मुख्यमन्त्रिणा एन् चन्द्रबाबु नायडुना सह एकम् उपवेशनं सम्बोधयन् तेन उदीरितं यत् नवपरियोजनाभिः आन्ध्रप्रदेशं, तेलङ्गाना, कर्णाटक, ओडिशा, तमिलनाडुराज्यञ्च निकटतया संयोजयिष्यन्ते। केन्द्रीयमन्त्री घोषितवान् यत् विजयवाड़ा हैदराबाद मार्गस्य विकासः राजमार्गरूपेण भविष्यति, येन द्वयोः नगरयोः मध्ये यात्रायाः समयः केवलं 2 होरा यावत् भविष्यति। क्रिकेट क्रीडायां भारतेन 74,300 धावनाङ्कानां प्रदत्तस्य बृहत् लक्ष्यस्य अनुसरणं कुर्वन् इङ्ग्लैण्डदलं लन्दननगरस्य ओवल क्रीडाङ्गणे भारत इङ्ग्लैण्डदलयोर्मध्ये प्रचलितस्य पञ्चमान्तिमस्य टेस्टक्रीडायाः चतुर्थे दिने ह्यः अन्तिमा सूचना प्राप्तिं यावत् इङ्ग्लैण्डदलं 64,100 धावनाङ्के कृतमासीत् इति वार्ताः।